पूर्वतनकक्षायां धन्यालोकस्य सामान्यपरिचयः उक्तमासीत्। अनन्तरम् आनन्दवर्धनः किन्निमित्तम् एतस्य ग्रन्थस्य लेखनं कुर्वन् अस्मि इति सः आरम्भे प्रतिपादितवान् अस्ति, तद् उक्तमासीत्। तत्र आरम्भे ध्वनिविषये त्रिविधाः विकल्पाः सन्ति इति उक्तमासीत्। एकं तु ध्वनि अभाववादः इति कश्चन वादः, ध्वनिः नास्ति एव इति कश्चन वादः, पुनः भाक्तवादः अनिर्वचनीयवादः इति वादद्वयमस्ति, अग्रे पश्यामः। तत्र अभाववादः अस्माभिः आरब्धः आसीत्, तस्मिन्नेव वादे अग्रिमः अंशः अस्ति। पुनरपरे वृत्तिः पश्यते मया, पुनरपरे सत्याभावम् अन्यथा कृतेः, अन्ये केचन जनाः तस्य अभावं नाम ध्वनेः अभावम् अन्यथा कृतेः, अन्यथा भिन्नप्रकारे कथम् इति चेत् न सम्भवत्येव ध्वनिर्नाम अपूर्वः कश्चित्। भवन्तः किं वदन्तः सन्ति, ध्वनिः इति अपूर्वः कश्चन विषयः अस्ति इति वदन्तः सन्ति किल, एतद् न सम्भवति एव। अर्थः भवति वा, न सम्भवत्येव ध्वनिर्नाम अपूर्वः कश्चित्। किमर्थम् इति चेत् कामनीयक मनसि वर्तमानस्य तस्य उक्तेष्वेव सारुत्वहेतुः अन्तर्भावात्। तद्ध्वनिनाम कः कः अस्ति कः इति चेत् कामनीयकम् अनतिवर्तमानस्य इत्युक्ते कमनीयम् इति यदस्ति तत् अन्तर्गच्छति एव, तदनन्तर्गच्छति इत्युक्ते सौन्दर्यहेतुत्वम् इति यदस्ति तस्मात् अन्यदस्ति इति भवन्तः वदन्ति चेत् तद् अस्माभिः यद्यदुक्तं तत्र एव उक्तेषु एव तस्य चारुत्वहेतुषु अन्तर्गतत्वा। चारुत्वहेतवः के के सन्ति इति वयम् उक्तवन्तः स्मः, तत्र एव अन्तर्गच्छति एव। इत्युक्ते यथा पूर्वमुक्तमस्ति, चारुत्वहेतवः सर्वेपि अंशाः अस्माभिः परिगणितवः एव सन्ति, तदतिरिक्तमपि अन्यदस्ति इति भवन्तः वदन्ति चेत् तद् अस्मदुक्तेषु अन्तर्गच्छति इति वयं वदामः। इदानीं शब्दचारुत्वहेतवः, अर्थचारुत्वहेतवः, पदसङ्घटनादिषु चारुत्व आधायकाः अंशाः ये सन्ति तदतिरिक्तः न सम्भवत्येव। यदि अस्ति इति भवन्तः वदन्ति एतेषु कुत्रापि तदन्तर्गच्छति, अतः उक्तेषु एव तस्य चारुत्वहेतुषु अन्तर्भावः। तेषाम् अन्यतमस्यैव अपूर्वसमाख्यामात्रकरणे यत्किञ्चन कर्तुं स्यात्, अतः तेषु एव अन्यतमस्य ध्वनिः इति किञ्चित् नाम कुर्वन्ति चेत् केवलं नाममात्रकरणे पाण्डित्यम् अभवत् तावत्तु भवति। किञ्च वाग्विकल्पानाम् आनन्त्यात् सम्भवत्यपि वा कस्मिंश्चित् काव्यलक्षणनिधायैः प्रसिद्धैः अप्रवर्तिते प्रकारदेशे ध्वनिः ध्वनिः इति यदेतदनीकसहृदयत्व भावनामुकुलितलोचनैः नृत्यते तत्र हेतुं न विद्यमानः। किं चिन्तयामि इत्युक्ते चार्थहेतवः बहवः सन्ति इति वयम् उक्तवन्तः, कति सन्ति इति कुर्मः उदाहरणार्थम् इत्युक्ते अर्थालङ्काराः सति शब्दालङ्काराः सति इति निष्कुर्मः, पञ्च आसीत् इति कृतवन्तः। किन्तु वाग्विकल्पानाम् आनन्द्या ಇದು ಅಲಂಕಾರದೇಕೆಂಬುವ ವಿಕಲ್ಪ ಭಿನ್ನ ಭಿನ್ನ ಪ್ರಕಾರದಲ್ಲಿ ಏಕಂ ವಿಷಯ ಒಪ್ಪಿ ಸರ್ವೇ ವಾಕ್ವಿಕಲ್ಪ ಕವಿವಾಕ್ವಿಕಲ್ಪ ಭವಿಸುಮರ್ಹಂತೆ ಅನಂತ ಅಥವಾ ವಾಗ್ವಿಕಲ್ಪಾಂ ಆನಂತ್ಯಾತ್ ವಯಂ ಯದ್ಧವಂತ ತದೇಕ್ತೋಪಿ ಕಷ್ಟನ ಪ್ರಕಾರ ಭವಿಸುಮರ್ಹತಿ ಸತ್ರ ಧ್ವನಿ ಭವಂತಿ ಚೇತ್ ವಾಗ್ವಿಕಲ್ಪಾಂ ಆನಂತ್ಯಾತ್ ಸಂಭವತ್ಯಪಿ ವಾ ಕಸ್ಮಿಂಶ್ಚಿತ್ ಕಾವ್ಯ ಲಕ್ಷಣ ವಿಧಾಯಿ ಪ್ರಸಿದ್ಧೈ ಅಪ್ರದರ್ಶಿತೆ ಪಟಾವಿಲೇಖೆ ಇದು ಕಾವ್ಯ ಲಕ್ಷಣಕರ್ತಾರ ಕೃತವಂತಹ ಪ್ರಸಿದ್ಧ ಕೃತವಂತ ತದತಿರಿಕ್ತೇ ಕಸ್ಮಿಂಶ್ಚಿತ್ ವಿಷಯ ಧ್ವನಿ ಇತಿ ಭವಂತಃ ವದಂತಿ ಚೇತ್ ಪ್ರಕಾರ ಲೇಖೆ ಧ್ವನಿ ಧ್ವನಿ ಇತಿ ಭವಂತಃ ಅನೇಕ ಸಹೃದಯತ್ವ ಭಾವನಾಮುಖಲಿತ ಲೋಚನೈಃ ಕೃತ್ಯತೆ ಭವಂತ ಕಿಂ ಕುರುವಂತೆ ಅಲ್ಲಿ ಅಪ್ಪೈದೀಕ್ಷಿತಾ ಕೃತ್ಯಂ ಕೃತವಂತಹ ಕಥಂ ಅಲಂಕಾರ ಭವಂತಿನ ಏಕೋತ್ತರ ಶತಂ ಅನ್ಯತ್ ಕಿಂಚಿತ್ ಅಸ್ತಿ ತತ್ರ ಇತ್ಯುಕ್ತೆ ಭವಂತಃ ನ ಉಕ್ತವಂತಃ ತತ್ರ ಧ್ವನಿ 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 ಇತಿ ಭವಂತಃ ವದಂತಿ ಚೇತ್ ಭವಂತಃ ಆತ್ಮಾನ ಸಹೃದಯ ಧನ್ಯಮಾನಃ ಮುಕುಲಿತ ಲೋಚನಾ ಸಂತಃ ನೇತ್ರೇಂದ್ರಿಯ ಬಹು ಸಂತೋಷೇಣ ಪತ್ರ ಧ್ವನಿ ಅಸ್ತಿ ಧ್ವನಿ ಅಸ್ತಿ ಇತಿ ಭವಂತಃ ಎಲ್ಲಿ ನೃತ್ಯಂ ಕುರುವಂತೆ ಜ್ಞಾಯತೆ ವಾ ಯದೇತತ್ ಅನೇಕ ಸಹೃದಯತ್ವ ನಮ್ಮ ವಸ್ತುತಃ ಸಹೃದಯತ್ವ ನ ಅನೇಕ ಸಹೃದಯತ್ವ ಭಾವನೆಯ ಮುಕುಲಿತ ಲೋಚನಾ ಸಂತಃ ನೃತ್ಯಂತಃ ಭವಂತಿ ತತ್ರ ವಯಂ ಹೇತುಂ ನ ವಿದ್ಮಃ ತಥಾ ಸಂತೋಷಕರಣೇ ಕಿಂ ಕಾರಣಮಿತಿ ವಯಂ ಜಾನೀಮಃ ಇತ್ಯುಕ್ತೆ ಸಾರ್ವಹೇತವ ಸರ್ವೇಪಿ ಅಸ್ಮಾಭಿಃ ಧ್ವನಿತಾಃ ಏವ ತದತಿರಿಕ್ತಃ ಏಕಃ ಅಸ್ತಿ ಇತಿ ಭವಂತಃ ಅಕಸ್ಮಾತ್ ವದಂತಿ ಚೇತ್ ತತ್ರೈವ ಧ್ವನಿ ಧ್ವನಿ ಇತಿ ನಾಮಕರಣಂ ಕುರುವಂತಃ ಆನಂದೇ ನೃತ್ಯಂತಿ ಚೇತ್ ಕಿಂ ಕಾರಣಮಸ್ತಿ ತತ್ರ ಇತ್ಯುಕ್ತೆ ಕಾರಣಮೇವ ನಾಸ್ತಿ ವಯಂ ನ ಪಶ್ಯಾಮಃ ಯತಃ ಸಹಸ್ರಶೋ ಹಿ ಮಹಾತ್ಮಭಿಃ ಅನ್ಯೈಃ ಅಲಂಕಾರ ಪ್ರಕಾರಾಃ ಪ್ರಕಾಶಿತಾಃ ಪ್ರಕಾಶ್ಯಂತೆ ಚ ಉಕ್ತವಾನ್ ದೀಕ್ಷಿತಾಃ ಶತಂ ಅಲಂಕಾರಾಃ ಇತಿ ರಚಿತವಂತಃ ಅನ್ಯೈಃ ಸಹಸ್ರಂ ಅಲಂಕಾರಾಃ ಇತಿ ದರ್ಶಯೇಯು ಅತಃ ತೈಃ ಭಿನ್ನಾಃ ಪ್ರಕಾರಾಃ ದರ್ಶಿತಾಃ ಅಗ್ರೆ ದರ್ಶಯಿಷ್ಯಂತೆ ಚ ತತ್ರ ಯತ್ರ ಕುತ್ರಚಿತ್ ಏಕಸ್ಮಿನ್ ಧ್ವನಿ ಏಕಃ ಅಂಶ ಅಸ್ತಿ ಇತಿ ಭವಂತಃ ವದಂತಿ ಚೇತ್ ಕಿಂ ತತ್ರ ಪ್ರವಾದಮಾತ್ರಂ ತತ್ವಂ ಕಿಂಚಿದಪಿ ಪ್ರಕಾಶಯಿತುಂ ಶಕ್ಯಂ ತತ್ರ ಕ್ಷೋಧಕ್ಷಮಂ ತತ್ವಂ ಸಮೀಚೀನ ಬಲವತ್ ತತ್ವಂ ಕಿಂಚಿತ್ ತಾದೃಶಂ ಪ್ರಕಾಶಯಿತುಂ ನ ಶಕ್ಯಂ ಧ್ವನಿಃ ಧ್ವನಿಃ ಇತಿ ಭವಂತಃ ವದಂತಿ ಕಿಲ ತಸ್ಯ ತತ್ವಂ ಕಿಂ ಬಲವತ್ ತತ್ವಂ ದರ್ಶಯಂತು ಇತಿ ಚೇತ್ ತಥಾ ದರ್ಶಯಿತುಂ ಯೋಗ್ಯಂ ತತ್ವಂ ಕಿಮಪಿ ನಾಸ್ತಿ ಅನ್ಯೇನ ಕೃತಯೇವ ಅತ್ರ ಶ್ಲೋಕಃ ಅಹಂ ಕಿಮರ್ಥಂ ವದನ್ ಅಸ್ಮಿ ಇತ್ಯುಕ್ತೆ ಅಹಮೇವ ನ ಅನ್ಯೇಪಿ ಕೇಚನ ಏತದ್ ವಿಷಯೇ ಶ್ಲೋಕಮೇವ ರಚಿತವಂತಃ ಸುನ್ನಂತು ಕಶ್ಚನ ಕಃ ಇತಿ ಚೇತ್ ಮನೋರಥಃ ಇತಿ ಕಶ್ಚನ ಅಲಂಕಾರಿಕಃ ಆಸೀತ್ ಇತಿ ಲೋಚನಕಾರಃ ಇತಿ ಮನೋರಥಃ ಇತಿ ಕಶ್ಚನ ಏಕಂ ಶ್ಲೋಕಂ ಇಷ್ಟವಾನ್ ಅಸ್ತಿ ತತ್ರ ಏವ ಅಸ್ತಿ ಯಸ್ಮಿನ್ನಸ್ತಿ ನ ವಸ್ತು ಕಿಂಚನ
ಯಸ್ಮಿನ್ನಸ್ತಿ ನ ವಸ್ತು ಕಿಂಚನ
ಮನಃಪ್ರಹ್ಲಾದಿತಾಲಂಕೃತಿ
ಮನಃಪ್ರಹ್ಲಾದಿತಾಲಂಕೃತಿ
ಉತ್ಪನ್ನೈರಹಿತಂ ನ ಚೈವ ವಚನೈಃ
ಉತ್ಪನ್ನೈರಹಿತಂ ಚೈವ ವಚನೈಃ
ವಕ್ರೋಕ್ತಿ ಶೂನ್ಯಂ ಚ ಯತ್
ವಕ್ರೋಕ್ತಿ ಶೂನ್ಯಂ ಚ ಯತ್
ಕಾವ್ಯಂ ತದ್ಧ್ವನಿನಾ ಸಮನ್ ಭವಂತಃ ಕೇಚನ ಜನಾಃ මම හලියට චින්තන කාර්යම තියෙන්නේ. අස්මිත කාර්යයේ ප්‍රණීතී කියන ප්‍රශ්න කරුවන්. යා යම් කරොටි සහකච්ඡන ජරා. සහ ජරා හිතුරවන්න සිද්දේ ඒකම කාලුන් ගෘහීත්ව වඩන්න තියෙනවා. යස්මින් අස්ති වස්තු නැකින් ජනා. තස්මින් කාර්යයේ කිමපි වස්තු ඒවෝ එන්න පශාම. උත්තමම වස්තු ඒව නැති. යස්මින් කාර්යයේ වස්තු කිංජන නැති. ඊර්ෂ්‍ය වස්තු ඉදිරියට මන ප්‍රවිහාදී. මනසහ ආල්හාදම් ජනේති. සන්තෝෂම් ජනේති. తాදෘశం వస్తు ఏవ నాస్తి. తాదృశం ఇంద్రియ కార్యంద్రియత్వ తర్వద నాస్తి. యస్మిన్ మన ప్రల్హాది వస్తు కించన నాస్తి. ద్వితి యస్మిన్ కాలంకృతి వస్తు నాస్తి. అలంకార సహితం వస్తు అపి నాస్తి. కం కాలంగృహీతో నాస్తి. తస్య కాల్యస్య వస్తు కీదృశమస్తి ఇతి చేత మనసః ఆహ్లాదమపి న జనయతి. నమాసత అలంకారావాసన. అతః వస్తు మన ప్రల్హాది అపి నాస్తి. తద్ వస్తు కాలంకృతి అలంకార సహితమపి నాస్తి. యస్మిన్ కాల్యే వస్తు ఏకాదృశమస్తి. అలంకారం యుత్పన్నై రచితం నచైవ వచనైహి. యుత్పన్నై వచనైహి రచితమస్తి వా. ఇతితే ఉత్పన్నాని వచనాని తాదృశ వచనైహి యుక్తమస్తి వా. తద్ కావ్యం ఇతి పృచ్ఛామశ్చే తదపి నామ. యుత్పన్నైహి వచనైహి నచైవ రచితం. తాదృశ వచనైహి యుక్తమపి నాస్తి తాదృశం. అనంతరం వక్రోక్తి శూన్యం జయత్. ఏ కావ్యమస్తి భవాన్ వదనస్తి తత్ర వక్రోక్తిరపి నాస్తి. వక్రోక్తి నామ ఇదనీ శతం అలంకారాస్ సంతి. తేషు శతే అలంకారేషు వక్రోక్తి ఇది ఏక అలంకారం ఇది అస్తి. తదతిరిక్య వక్రోక్తి నామ సుందరం కథనం. వక్రోక్తి నామ సుందరం కథనం తాదృశం. తాదృశం వక్రోక్తిరపి యత్న నాస్తి. తాదృశం కించిద్ తద్ కావ్యం ధ్వనినా సమన్వితం ఇది. ఏ తద్ కావ్యం ధ్వనినా యుక్తం ఇది ధ్వనినా సమన్వితం. ప్రీత్యా ప్రశంసన్ జడః. ఏవం కచ్చన జనః అతీవ ప్రీత్యా ప్రశంసన్ ప్రశంసన్ కరోతి. తస్యాస్తే చింతన కావ్యం అస్తి. వయం జానీమః తస్మిన్ కావ్యే ఉత్తమం వస్తు నాస్తి. అలంకారాః న సంతి. ఉత్పన్నైహి వచనైహి ఏమి తత్వమపి నాస్తి. అనంతరం తత్ర వక్రోక్తిరపి నాస్తి. తాదృశం కావ్యం గృహీత్వా ఏతద్ ధ్వనినా సమన్వితం ఇతి ప్రశంసాం కరోతి కచ్చన జడః. ఏవం ప్రశంసన్ జడః యది తర్హి తస్య ధ్వనేః సుఖస్వరూపం కిమ్ ఇతి వదతు ఇతి వదామశ్చే. యది సుకృతినా పృష్టః జనః. తం జనం కచ్చన సుకృతి నమ సత్పురుష మాదృశ కచ్చన సత్పురుష సముద్దిశ్య ప్రశ్నం పృచ్చతి. కిమిది తస్య స్వరూపం కిమ్. భవాన్ ధ్వనిహి ధ్వనిహి ఇతి బహు వదతి కిల తస్మిన్ కావ్యే ధ్వని అస్తి ఇది. తర్హి ధ్వనేః స్వరూపం కిమ్ ఇతి పృష్టః. నో విద్మః కిమపి దదాతి. అస్మాభిః పృష్టః జనః సః కిమ్ ఉత్తరం వదతి ఇతి వయం తు న జానీమః. ఇత్యుక్తే సః యద్ గృహీతవాన్ అస్తి తస్మిన్ కావ్యే ఉత్తమం వస్తు నాస్తి, అలంకారః నాస్తి, ఏవ ప్రోక్తిః నాస్తి, ఏకాదృశం కిమపి నాస్తి. ధ్వని అస్తి ఇతి భవాన్ వదతి. తర్హి ధ్వనేః స్వరూపం కిమ్ ఇతి పృచ్ఛామశ్చేత్ కిమ్ ఉత్తరం వదతి సః. నో విద్మో అభిదాతి. అభిదాతి వదతి. అభిదాతి కిమ్ సుకృతినా పృష్టః స్వరూపం ధ్వనేః. ధ్వనేః స్వరూపం పృష్టః సః జనః. ఇత్యుక్తే పృచ్ఛం ప్రశ్నం అహం కరోమి. మయా పృష్టః సః జనః కిమ్ ఉత్తరం వదతి ఇతి వయం న జానీమః. అతః ధ్వనిః ధ్వనిః ఇతి కేవలం వదతి చేత న పర్యాప్తం. స్వరూపమపి వక్తవ్యం. స్వరూపం దీనికి పృచ్ఛామశ్చే మౌనం ఆచరయతి చేత్ కిమ్. అతః కిమ్ వదతి ఇతి వయం న జానీమః. ఇత్యుక్తే ఆనందవర్ధనస్య కాలే ఏవ ద్వంద్వభావవాదినః చేతన ఆసన్ ఏవ మనోరథః తేషు అన్యతమః. సా సమ్యక్ ధ్వనిః నాస్తి ఇతి ప్రతిష్ఠాపితవాన్ అస్తి. అస్తి ఇది భవంతః వదంతి. ధ్వని ధ్వని ఇది వదంతి. తస్య స్వరూపం కిమిది వదంతి ఇది వదామశ్చేత్ మౌనం మౌనం దంతే. కిమేత సంభవతి ఇది ప్రశ్న అస్తి. श्लोकं पठामः एकवारम् यस्मिन्नस्ति न वस्तु किञ्चन प्रह्लादितालङ्कृति युत्पन्नैरचितं न चैव वचनैः वक्रोक्ति शून्यं जयत् काव्यं तद्ध्वनिना समन्वितमिति कृतिना पृष्टस्वरूपं धने सुमतिना पृष्टः यः प्रश्नं करोति सः सुकृतिः अथवा सुमतिः तादृशः तेन पृष्टः जनः किम् उत्तरं वदति अग्रे सो एवं तर्हि ध्वनिः इति नास्ति इति निर्णयः चालितः सः ध्वनिविरोधवादी यः अस्ति सः ध्वन्यभाववादी एवं प्रदर्शितवान् तर्हि अभाववादः समाप्तः द्वितीयः वादः कः अस्ति चेत् भाक्तवादः अस्ति अतः भक्तमाहुस्तमन्ये इत्यस्ति किल पद्ये किमस्ति पद्ये आसीत् भक्तमाहुस्तमन्ये इति वाक्यम् अस्ति भक्तम् आहूतम् अन्ये अन्ये तं नाम ध्वनिसंहितं काव्यस्य आत्मानम् भक्तम् आहुः भक्तम् आहुः नाम गुणवृत्तिः इत्याहुः स काव्यात्मभूतः यः अस्ति इति भवन्तः वदन्ति तं ध्वनिनामकं ते सर्वे गुणवृत्तिः नाम प्रधानं गौणं गुणवृत्तिः अप्रधानम् इति ते वदन्ति अप्रधानतया वर्तते इति वदन्ति इत्युक्ते ध्वनिनामकं किञ्चिदस्ति इति चेति अङ्गीकुर्युः नाम किन्तु भवन्तः किं वदन्ति तदेव काव्यात्मभूतं प्राणभूतम् इति वदन्ति किन्तु एते किं वदन्ति तत् किञ्चित् अप्रधानम् गुणवृत्तिः इति वदन्ति तदेव यद्यपि च न वा तदेव यद्यपि च ध्वनिशब्दसङ्कीर्तनेन काव्यलक्षणविधायिभिः गुणवृत्तिः अन्यो वा न कश्चित् प्रकारः प्रकाशितः तथापि अमुख्यवृत्त्या काव्येषु व्यवहारं दर्शयत ध्वनिमार्गो मनात् स्पृष्टोऽपि न लक्षितः इति परिकल्पेयोक्तं भाक्तमानुस्थानीयः इत्युक्ते एते गुणवृत्तिं ये वदन्ति ते गुणवृत्तिः मुख्यवृत्तितया नास्ति इति उक्तवन्तः इत्युक्ते अस्ति तैः कृतवन्तः इत्युक्ते ध्वनिमार्गं ते किञ्चित् स्पृष्टवन्तः मनात् स्पृष्टः इत्युक्ते मनात् इत्युक्ते किञ्चित् अतः एतैः ध्वनिमार्गः किञ्चित् स्पृष्टः अस्ति किन्तु तदेव प्रधानम् इति नाङ्गीकुर्वन्ति ध्वनिशब्दसङ्कीर्तनेन ध्वनिसंहितः इति भवन्तः उक्तवन्तः किल ध्वनिसंहितं भवन्तः यं वदन्ति तं वयं भक्तं वदामः इति उक्तवन्तः किल अतः ध्वनिशब्दसङ्कीर्तनेन काव्यलक्षणविधायिः गुणवृत्तिः अन्य वा न वा कश्चित् प्रकारः प्रकाशितः इत्युक्ते अन्येव कश्चित् प्रकारः न इत्युक्ते मध्ये कश्चन प्रकारः अस्ति सः किन्तु सः अमुख्यवृत्त्या मुख्यवृत्तिः न अमुख्यवृत्त्या काव्येषु व्यवहारं दर्शयति इत्युक्ते तादृशमपि चिन्तनसत्त्वमस्ति इति अङ्गीकुर्मः किन्तु मुख्यवृत्तिः न अमुख्यवृत्त्या तत्र व्यवहारं वयं दर्शयामः इति दर्शयकारेण ध्वनिमार्गः मनात् स्पृष्टः मनात् नाम ईषत् किञ्चित् स्पृष्टः अपि न रक्षितः इति परिकल्प्य एवं किञ्चित् स्पृष्टः अस्ति तथापि न लक्षितः न लक्षितः नाम तत्र लक्षणम् एवमेव इति लक्षणं न कृतम् न लक्षितम् इति कृत्वा तदर्थं भक्तमाहुस्तमन्ये पृष्टम् अतः तावदेव भक्तं ते वदन्ति एवं लक्षणं वदन्ति सर्वं न उक्तवान् अन्ये केचन भक्तम् तावदेव उक्तवान् भक्तवादस्य विषये अग्रे केचित् पुनः
ಲಕ್ಷಣಕರಣಶಾಲೀನಬುದ್ಧಯ ಧ್ವನೇ ತತ್ವ ಗಿರಾಮಗೋಚರಂ ಸಹೃದಯ ಹೃದಯ ಸಂವೇದ್ಯಮೇವ ಸಮಾಖ್ಯಾತವಂತ. ಅನ್ಯೇ ಕೇಚನ ಸಂತಿ ತೃತೀಯ ವಿಧೇ ಕೀದೃಶಃ ಇತಿ ಚೇತ್ ಲಕ್ಷಣಕರಣಶಾಲೀನ ಬುದ್ಧಯ. ಲಕ್ಷಣಕರಣೇ ಶಾಲೀನ ಬುದ್ಧಿ, ಶಾಲೀನ ಬುದ್ಧಿ ನಾಮ ಅಪ್ರಗಲ್ಭ ಮತಯ. ಲಕ್ಷಣ ಕರ್ತು ಶಕ್ನು ಧ್ವನಿ ಅಸ್ತಿ ವಯಂ ಅಂಗೀಕುರ್ ಅಸ್ತು. ಇದು ಲಕ್ಷಣ ವದತು ಇತ್ಯುಕ್ತೆ ವಕ್ತು ನ ಶಕ್ಯತೆ. ಲಕ್ಷಣ ವದತು ಇತ್ಯುಕ್ತೆ ಲಕ್ಷಣ ಕರ್ತು ನ ಶಕ್ಯತೆ ಇತಿ ವದಂತಿ. ಅತ ಲಕ್ಷಣಕರಣೇ ಶಾಲೀನ ಬುದ್ಧಯ ನಾಮ ಅಪ್ರಗಲ್ಭ ಮತಯ ಇತಿ ಲಕ್ಷಣ. ಲಕ್ಷಣ ಕರ್ತು ನ ಶಕ್ನುವಂತಿ ತಾದೃಶಃ ಜ್ವನೇ ತತ್ವಂ ಗಿರಾಮಗೋಚರಂ ವಚಸಾಮಗೋಚರಂ ವಾಚಾಮಗೋಚರ ಇತಿ ವದಾಮಿ ಕಿಲ ತಾದೃಶಂ ಗಿರಸಾ ಗಿರಾಂ ಅಗೋಚರಂ ಇತಿ ಮನ್ವಾನಃ. ತತ್ ಕಥಂ ಜ್ಞಾಯತೆ? ಸಹೃದಯ ಹೃದಯ ಸಂವೇದ್ಯಂ. ಸಹೃದಯಾನಾಂ ಹೃದಯೇ ತಸ್ಯ ಅನುಭವಃ ಭವತಿ ತಾವದೇವ. ತತ್ ಕಥಂ ಇತಿ ವರ್ಣಯಿತುಂ ನ ಶಕ್ಯತೆ ಇತಿ ವದಂತಿ. ಸೊ ಲೋಕೆ ಕೇಚನ ವಿಷಯಾಃ ಕಥಂ ಭವತಿ ಇತ್ಯುಕ್ತೆ ವರ್ಣಯಿತುಂ ನ ಶಕ್ಯತೆ. ತಸ್ಯ ಅನ್ಯತ್ ಕಿಮಪಿ ಉಪಮಾನ ದತ್ವಾ ವಾ ಏವಮೇವ ಇತಿ ವಯಂ ಜ್ಞಾಪಯಿತುಂ ನ ಶಕ್ನುಮಃ. ತದ್ವದೇವ ತಸ್ಯ ಕಿಂ ಹೃದಯ ಏಕ ವೇದ್ಯಂ ಇತಿ ವದಾಮಃ. ಪಠತಾಂ ಅಗೋಚರಂ ತಥಾ ವದಂತಿ. ತಥಾ ಏತೇ ಕಿಂ ವದಂತಿ ಇತಿ ಚೇತ್ ಧ್ವನೇ ತತ್ವಮಪಿ ಗಿರಾಮಗೋಚರಂ ಇತಿ ಚೇ ಸಮಾಖ್ಯಾತವಂತಃ ಉಕ್ತವಂತಃ. ಅತಃ ತೃತೀಯವಿಧಾ ಜನಾಃ ಕೇಚಿತ್ ಪುನಃ ಲಕ್ಷಣಕರಣಶಾಲೀನ ಬುದ್ಧಯಃ ಲಕ್ಷಣಕರಣೇ ಅಸಮರ್ಥಾಃ ತಾದೃಶಾಃ ಜನಾಃ ಧ್ವನೇಃ ತತ್ವಂ ಗಿರಾಮಗೋಚರಂ ವಚಸಾಂ ಅಗೋಚರಂ ಮನ್ವಾನಾಃ. ಸಹೃದಯ ಹೃದಯ ಸಂವೇದ್ಯಮೇವ ಸಹೃದಯಾನಾಂ ಹೃದಯೇನ ಕೇವಲಂ ಲೇತ್ತುಂ ಶಕ್ಯಂ ಇತಿ ಸಮಾಖ್ಯಾತವಂತಃ ಉಕ್ತೌ. ಏವಂ ವದಂತಿ ಚೇತ್ ಬಹು ಉತ್ತಮ ಉಪಾಯ. ಶಕ್ಯತೆ ಅನುಭವಿತ ವೇದ್ಯಂ ಇತಿ ವದಾಮಶ್ಚೇತ್ ಏವಂ ಬಹವಃ ವದಂತಿ. ಸೊ ಏವಂ ಸತಿ ಅಸ್ತಿ ಕಿಂತ ವರ್ಣಯಿತುಂ ನ ಶಕ್ಯತೆ ಇತಿ ಚೇತ್ ಸರ್ವೇಷಾಂ ವಿದುಷಾಂ ಪುರತಃ ಪ್ರತಿಷ್ಠಾಪನಂ ಕಥಂ ಕರೋತಿ ಭವಾನ್ ಧ್ವನಿಃ ಅಸ್ತಿ ತಥಾ ತತ್ತು ಕರಣೀಯಮೇವ. ಭವತಃ ಅನುಭವ ಭವೇತ್ ಏಕೈಕಸ್ಯಾಪಿ ಅನುಭವ ಗೋಚರಂ ಭವೇತ್ ಇದು ನ ಭವತಿ ನಿರಾಕೀರ್ಣಂ ತತ್ ಪ್ರತಿಷ್ಠಾಪನಂ ಕರಣೀಯಂ ಕಿಲ ವಿದುಷಾಂ ಸಮವಾಯೇ ವಾದಂ ಕೃತ್ವಾ ಧ್ವನಿಃ ಇತಿ ಅಸ್ತಿ ವಾ ಪ್ರತಿಷ್ಠಾಪನಂ ಕರಣೀಯಂ ಕಿಲ ತದರ್ಥಂ ಅನುಕೂಲಂ ಅಸ್ತಿ. ಸವದತಿ ಅಂದ್ರೆ ತೇನ ಏವಂ ವಿಧಾಸು ವಿಮತಿಷು ಸ್ಥಿತಾಸು ಏವಂ ವಿಧಾಃ ವಿಮತಯಃ ಸಂತಿ ಸುತೆ ಅನಂಗೀಕಾರ ವಿಮತಿ ಬುದ್ಧೌ ಭೇದಾಃ ಸಂತಿ. ಧ್ವನಿ ನಾಸ್ತಿ ಇತಿ ಕಶ್ಚನ ವಾದ, ಧ್ವನಿ ಅಸ್ತಿ ಭಕ್ತಃ ಇತಿ ಅನ್ಯಃ ವಾದ, ಧ್ವನಿ ಅಸ್ತಿ ವಚಸಾ ವರ್ಣಯಿತುಂ ನ ಶಕ್ಯತಾ ನ ಶಕ್ಯಃ ಇತಿ ಅಪರಃ ವಾದ. ಏವಂ ವಿಮತಯಃ ಸಂತಿ ಏವಂ ವಿಮತಿಷು ಸ್ಥಿತಾಸು ಸಹೃದಯ ಮನಃಪ್ರೀತಯೇ ತತ್ಸ್ವರೂಪಂ ವಯಂ ಗುರುಮಃ. ಇದಾನಿ ವಯಂ ವದಾಮಃ ಇತ್ಯುಕ್ತಿ ತಸ್ಯ ಹಿ ಧ್ವನೇಃ ಸ್ವರೂಪಂ ಸಕಲ ಕವಿಕಾಯ ಉಪನಿಷದ್ಭೂತಂ ಅತಿರಮಣೀಯಂ ಅನ್ಯಸೀಭಿರಪಿ ಚಿಂತನ ಕಾವ್ಯಲಕ್ಷಣ ವಿಧಾಯಿನಾಂ ಬುದ್ಧಿಃ ಅನುನ್ಮೀಲಿತ ಪೂರ್ವಂ. ವಯಂ ಕಿಮರ್ಥಂ ವದಂತ ಸ್ಮಃ ಇತ್ಯೇತ್ ಇದಾನಿ ಧ್ವನಿಃ ಯಂ ವಿಷಯಂ ವಯಂ ವದಂತ ಸ್ಮಃ ಸಹ ವಿಷಯಃ ಧ್ವನೇಃ ಸ್ವರೂಪಂ ಸಕಲ ಕವಿ ಕಾವ್ಯ ಉಪನಿಷದ್ಭೂತ ಸರ್ವೇಷಾಂ ಕವೀನಾಂ ಕಾವ್ಯಾನಿ ಯಾನಿ ಸಂತೆ ಕೇಶಾಂ ಸರ್ವೇಷಾಂ ಉಪನಿಷದ್ಭೂತಂ. ವೇದಾಂತ ಇತಿ ವದಂತಿ ಕಿಲ, ವೇದಾಂತೆ ಬಹವಃ ಗ್ರಂಥಾಃ ಸಂತಿ ಸರ್ವೇಹಿ ತತ್ರ ವಿಶಿಷ್ಯ ಪ್ರಧಾನಾಃ ಉಪನಿಷದಃ ಸುತ ಉಪನಿಷದಾಮಯೋ ವೇದಾಂತ ಇತಿ ನಾಮ. ವೇದಾಂತಸ್ಯ ಸಾರಭೂತಂ ಕಿಂ ಇತಿ ಚೇತ್ ಉಪನಿಷತ್. ಅತಃ ಅಸ್ಯ ಸಂಪೂರ್ಣಸ್ಯ ಸಾರಭೂತಂ ಕಿಂ ಇತಿ ಚೇತ್ ಧ್ವನಿರೇವ. ಅತಃ ಸಕಲ ಕವಿಕಾಲ ಉಪನಿಷದ್ಭೂತಂ ಅತಿರಮಣೀಯಂ ಇತದತ್ಯಂತಂ ರಮಣೀಯಮಪಿ ತಾದೃಶಮಪಿ ತತ್. अन्यसीभिरपि चिरन्तनकाव्यलक्षणविधायिनां बुद्धिभिः काव्यलक्षणविधायिनः ये काव्यलक्षणं कृतवन्तः ते सर्वे काव्यलक्षणविधायिनः ये सन्ति काव्यलक्षणं ये दत्तवन्तः तैः सर्वैः तादृशैः तेषां बुद्धिः काव्यलक्षणं ये कृतवन्तः तेषां बुद्धयः कीदृशः बुद्धयः अन्यसीभिः अतिसूक्ष्माः बुद्धयः काव्यलक्षणं कर्तुम् अतिसूक्ष्मा बुद्धिः अपेक्षिता ये पण्डिताः काव्यलक्षणं कृतवन्तः तेषां सूक्ष्मादिः बुद्धिभिः अपि यत् पूर्वं न उन्मीलितम् यत् ध्वनिरूपं तत्त्वं पूर्वं न उन्मीलितम् यद्यपि तेषां बुद्धिः महति तीक्ष्णा अस्ति तथापि ते ध्वनिरूपम् एतत् तत्त्वं न उन्मीलितवन्तः न प्रकाशितवन्तः उन्मीलितं प्रकाशितम् इत्युक्ते काव्यलक्षणकरणे तेषां महती बुद्धिः अस्ति तेषां तादृशी बुद्धिरपि ध्वनिरूपं तत्त्वं न समुदमीलयत् एतत् तत्त्वं ते न उन्मूलितवन्तः पूर्वम् अतः तैः अनुन्मीलितपूर्वमस्ति तथैव अथ च रामायणमहाभारतप्रभृतिनिलक्ष्ये सर्वत्र प्रसिद्धव्यवहारं लक्षयताम् तर्हि तस्य ध्वनेः उदाहरणानि कुत्रापि दृश्यन्ते वा इति पृच्छामश्चेत् रामायणे महाभारते वा तादृशकाव्येषु अवश्यं तस्य बहूनि प्रमाणानि दृश्यन्ते उदाहरणानि दृश्यन्ते लक्ष्यभूतानि काव्यानि सन्ति एव लक्षणं तु न कृतं लक्ष्यं तस्य उदाहरणानि तु सन्ति एव अतः एवं सति रामायणमहाभारतादिषु व्यवहारः अस्ति सहृदयानाम् आनन्दः मनसि लभताम् प्रतिष्ठाम् इति प्रकाश्यते अतः करणीयमेव तस्य किञ्चन लक्षणं करणीयमेव इति स्थितिः अङ्गता अस्ति वयं तदर्थं प्रयत्नं कुर्मः येन सहृदयानां हृदये आनन्दः भवतु तच्च सत्त्वं सहृदयानां हृदये प्रतिष्ठां लभताम् इति कृत्वा वयम् इदानीं ध्वनिविषये सिद्धान्तं कुर्मः इति ध्वनिरेव लक्षयितुम् आरब्धस्य भूमिकां रचयितुम् इदम् उच्यते तर्हि इदानीं कस्य रक्षणं करणीयम् ध्वनेः रक्षणम् इति वर्णनीयमस्ति अतः ध्वनिः लक्षयितुम् आरब्धः रक्षणं कर्तुम् आरब्धं लक्षयितुम् आरब्धमस्ति लक्षयितुम् आरब्धस्य ध्वनेः भूमिकां रचयति प्रथमं तस्य निमित्तं काचित् पीठिका रचनीया भूमिका रचनीया अतः भूमिकां रचयितुं सः इदानीम् इदं वदति तदर्थम् इदम् उच्यते किमुच्यते इति चेत् द्वितीयकारिका योऽर्थः सहृदयश्लाघ्यः योऽर्थ इति अस्ति चेत् उत्तमं भवति अस्तु अर्थात् चिन्तनम् योऽर्थः आवश्यकम् यतः तस्याः क्षेत्रे अस्ति योऽर्थस्तदयश्लाघ्यः वाच्यप्रदीयमानाख्यौ तस्य भेदौ उभौ स्मृतौ उक्तवान् तावत् कारिका सरला अस्ति किन्तु अर्थग्रहणे अत्र कश्चन क्लेशः अस्ति प्रथमम् एकवारं स्पष्टं करोमि भवतां पूर्वमेव एकवारं यद्यपि कदाचित् उक्तवान् आसम् इति मन्ये कक्षायां तथा तु पुनरेकवारं ध्वनिः इति वदामि प्रतीयते इत्यस्ति किल प्रतीयते नाम कः इति चेत् अग्रे अस्ति तथापि अहं किञ्चित् स्पष्टतार्थं वदामि कविः किमपि काव्यं श्रावयति अथवा काव्यं रचयति एकं श्लोकं वदति तस्य श्लोकस्य कश्चन अर्थः भवति प्रथमं तस्य श्रवणमात्रेण यः अर्थः अवगम्यते सः शब्दः सः अर्थः उच्यते वाच्यार्थः अनन्तरं वाच्यार्थश्रवणानन्तरं यस्य चतुर्दयस्य तद्विषये अनुभवः अस्ति तस्य संस्कारवशात् द्वितीयः कश्चन अर्थः अनन्तरं ज्ञायते अनन्तरं नाम तदनन्तरं झटिति अपि कदाचित् किञ्चित् कालानन्तरम् अनन्तरं द्वितीयः अर्थः स्फुरति प्रथमः अर्थः वाच्यार्थः द्वितीयः अर्थः अस्ति किल सः उच्यते प्रतीयमानः अर्थः अथवा लिङ्गार्थः इति ध्वन्यर्थः लिङ्गार्थः प्रतीयमानार्थः इति बहवः अर्थाः सन्ति नामानि बहूनि नामानि सन्ति तर्हि कविः वाच्यार्थः अस्ति किल तद् वक्तुं न इष्टवान् वा इति पृच्छति चेत् बहुत्र उत्तमः कविः वाच्यार्थं वक्तुं नेच्छति सः वस्तुतः प्रवृत्तवान् तस्य उद्देशः व्यङ्ग्यार्थस्य बोधने एव तस्य तात्पर्यं तदर्थं सः अन्यत् किञ्चित् उक्तवान् भवति यथा अहं पूर्वम् उक्तवान् आसम् लीलाकमलपत्राणि गणया मातपार्वती उक्तवान् वा गणेशि वा अस्तु न चिन्तयन्ति एवं कालिदासस्य कुमारसम्भवे एकं पद्यमस्ति पर्वतराजस्य पुत्री पार्वती अस्ति पार्वती एव शिवस्य योगकन्या इति निश्चयः भवति अनन्तरं पार्वती तपः आचरति शिवः शिवः प्रत्यक्षो भवति एतत् सर्वं समाप्तं तदनन्तरं शिवस्य पार्वत्याश्च विवाहस्य निश्चयः करणीयः तदर्थं सप्तर्षयः हिममतः गृहम् आगच्छति पार्वत्याः पितुः हिमवतः गृहं प्रति सप्तर्षयः आगच्छन्ति गृहमागत्य तेन सह सम्भाषणं कुर्वन्ति विवाहविषयकः वार्तालापः भवति एवम् अत्यन्तं योग्यः वरः शिवः पार्वतीवती ऋतुः अनयोः सङ्गमः भवतु इत्यादि इत्यादि सम्यक् वार्तालापं कुर्वन्ति तत्सर्वं पार्वती शृणोति यदा विवाहविषयकः वार्तालापः समाप्तः तदा एकं पद्यमस्ति एवं वा देवर्षौ पार्श्वे पितुरथो मुखी लीलाकमलपत्राणि गणयामास पार्वती इति एकं पद्यमस्ति एवं वादी देवर्षौ देवर्षिः देवर्षयः यदा एवम् उक्तवन्तः किमिति एवं विवाहः भवतु पार्वती दीयताम् इत्यादिकं सर्वं यदा उक्तवन्तः एवं वादी देवर्षौ पार्वतीपुत्रा चेत् पार्श्वे पितुः अधोमुखी पितुः पार्श्वे पार्वती स्थितवती आसीत् कथम् अधोमुखी सति स्थितवती आसीत् सा किं कृतवती इति चेत् लीलाकमलपत्राणि गणयामास पार्वती तत्र कुत्तिमम् इति वदामः कुत्तिमं फ्लो कुत्तिमे तत्र कमलपत्राणि आसन् कदाचित् चित्राणि रचितानि कमलानां चित्राणि रचितानि आसन् तादृशचित्राणि आसन् सा किं कृतवती पाद अङ्गुलिना प्रायशः पादाङ्गुष्ठेन वा किमपि लीलाकमलपत्राणि गणयामास कृतवती एकं द्वे त्रीणि चत्वारि इति तेषां गणनां कृतवती अतः यदा देवर्षयः एतद्वाक्यम् उक्तवन्तः तदा पितुः पार्श्वे स्थितवती पार्वती लीलाकमलपत्राणि गणयामास इति कालिदासः लिखति अस्य वाच्यार्थमेव स्वीकुर्मः चेत् पार्वती लीलाकमलपत्राणि गणयामास गणितवती कमलपत्राणि सन्ति तस्मिन् कमले कति पत्राणि स्युः अष्ट वा दश वा द्वादश वा पत्राणि स्युः सा पात्राणि गणितवती पार्वत्याः सः उद्देशः अस्ति वा कति पत्राणि सन्ति अस्मिन् कमले इति ज्ञातुं तस्य उद्देशः अस्ति वा अथवा कालिदासस्य मनसि अपि पार्वती तत्र कति पत्राणि सन्ति इति गणितवती इति कथनं तस्य लक्ष्यमस्ति वा तस्य लक्ष्यं किमस्ति इत्युक्ते वधूः स्वस्य विवाहविषयकवार्तालापं श्रुत्वा लज्जया शिरः अवनतं कृतवती इति वक्तव्यम् इति तस्य मनसि विषयः अतः लज्जा इति कश्चन भावः अस्ति सः भावः अस्ति सः अर्थः अनन्तरं भिद्यते यदि एकम् अर्थं न गृह्णाति कश्चन पार्वती कमलपत्राणि गृहीतवती इति गणनाम् इत्येवं सूत्री इति गणना इत्येव अर्थं गृह्णाति निराकरणपत्रायामः किन्तु कालिदासस्य मनसि विद्यमानः अर्थः गणनारूपः अर्थः नैव लज्जा इति भावः द्वितीयः अर्थः एव तस्य मनसि अतः महाकवीनां वाक्येषु तादृशः द्वितीयः अर्थः भवति सः अर्थः प्रतीयमानः अर्थः इति तर्हि वाच्यार्थः भिन्नः प्रतीयमानः अर्थः भिन्नः सः प्रतीयमानः यः अस्ति अर्थः अस्ति तस्य ध्वनिः इति नाम इति एतावत् प्रकृतं स्मरामः अग्रे एवं जानीमश्चेदपि पुनः कश्चन क्लेशः भवति कः इति चेत् योत्थस्थहृदयश्लाघ्यः काव्यात्मेति व्यवस्थितः यः द्वितीयमः अर्थः अस्ति किल प्रतीयमानः अर्थः सः सहृदयश्लाघ्यः सहृदयाः तस्य अर्थस्य श्लाघनं कुर्वन्ति सहृदयश्लाघ्यः यः द्वितीयः अर्थः अस्ति सः काव्यस्य आत्मा इति व्यवस्थितः काव्यस्य आत्मा नाम कः इति चेत् सः अर्थः द्वितीयः प्रतीयमानः अर्थः सो प्रतीयमानः यः अर्थः काव्यात्मा इति सहृदैः अङ्गीकृतः अस्ति इति वाक्यमर्थं समाप्तम् यः अर्थः सहृदयश्लाघ्यः काव्यात्मा इति व्यवस्थितः तस्य द्वौ भेदौ स्मृतौ तस्य द्वौ भेदौ भवतः कौ इति चेत् वाच्यप्रतीयमानाभ्य एकः वाच्यार्थः इदानीं किमुक्तं वाच्यार्थः इति कश्चन अस्ति प्रतीयमानार्थः इति उक्तमस्ति वाच्यार्थं छेदन्तु मुख्यः नास्ति प्रतीयमानः यः अर्थः अस्ति तस्य पुनः भेदद्वय किमिति वाच्यार्थः अतः अत्र कश्चन क्लेशः अस्ति अतः अत्र व्याख्यानकारः अनन्तरं लिखति प्रतीयमानः यः अर्थः अस्ति सः एव काव्यात्मभूतः संशयः नास्ति किन्तु सः प्रतीयमानार्थोऽपि कदाचित् वाच्यस्पर्शसहितः भवति वाच्यार्थः द्वितीयवारं वाच्यार्थः इति उच्यते किल तस्य कः अर्थः इति चेत् वाच्यस्पर्शसहितः प्रतीयमानार्थः नाम वाच्यस्पर्शरहितः इत्यर्थः अतः द्वितीयः अर्थः अस्ति किल प्रतीयमानः अर्थः सः एव काव्यात्मभूतः सोऽपि वाच्यः नाम वाच्यार्थः नाम वाच्यस्पर्शरहितः वाच्यस्पर्शरहितः इति अर्थद्वयं कल्प्यते एवम् अर्थः ग्रहीतव्यः नो चेत् अस्माकं ब्रह्मदर्शि नास्ति प्रतीयमानः यः द्वितीयः अर्थः अस्ति सः पुनः द्विधा वाच्यार्थः प्रतीयमानार्थः नाम तत्र वाच्यार्थशब्दस्य प्रथमः वाच्यार्थः अस्ति किल तस्य स्पर्शमात्रसहितः तत्र प्रथमः वाच्यार्थः अस्ति किल तस्य स्पर्शोऽपि कश्चन भवति प्रतीयमाने एव अर्थः सः किन्तु वाच्यस्पर्शसहितः भवति अतः वाच्यार्थः इति नाम तस्य अन्यस्तु तत्र प्रतीयमानः प्रतीयमानः अर्थः निर्यार्थः प्रतीयमानः अर्थः एव लिङ्ग्यार्थः अस्ति किल द्वितीयः तत्र वाच्यार्थः इति वदन् अस्ति ततोपि लिङ्ग्यार्थ एव किन्तु सः लिङ्ग्यार्थः परस्परसहितः तत्र 10% वाच्यस्पर्शः भवति इति चिन्तयति कल्पनां करोतु यतः वाच्यस्पर्शः भवति अतः तस्यापि वाच्यार्थः इति एवमेव नाम किन्तु सः लिङ्ग्यार्थः एवं भेदः भवति इत्युक्तवान् इतोपि ध्वनेः लक्षणं न उक्तवान् दिवालज्जम् अहं वदन् अस्ति अग्रे उद्दिश्यते वाच्यप्रतीयमानाख्यौ तस्य उभौ भेदौ स्मृतौ इति प्रथमं भेदम् उक्तवान् अग्रे वदति काव्यस्य हि ललितोचितसन्निवेशचारुणः शरीरस्य आत्मा इव साररूपतया स्थितः सहृदयश्लाघ्यः यः अर्थः तस्य वाच्यः प्रतीयमानश्च इति द्वौ भेदौ इदानीं निरुक्तवान् तदेव काव्यस्य काव्यस्य नाम लोको ललितोचितसन्निवेशचारुणः यत्र ललिताः उचिताश्च सन्निवेशाः तत्र योजिताः सन्ति येन चारुत्वं यत्र अस्ति तादृशस्य काव्यस्य शरीरस्य आत्मा यथा भवति तथा तस्य काव्यस्य सहृदयश्लाघ्यः कश्चन अर्थः भवति सः प्रतीयमानः वाच्यः इति द्विधा तर्हि तर्हि इदानीं ध्वनिः वेदद्वयम् अस्ति इति अभवत् एकः वाच्यार्थः वाच्यार्थः नाम पुनर्वर्णितवानस्ति पुनः पृथग्जनः अर्थः इति अस्ति द्वयोरपि वर्णनं कुर्वन्तु इति भवन्तः पृच्छेदः वदामि तत्र वाक्यः प्रसिद्धो यः प्रकारैरुपमादिभिः बहुधा व्याकृतः सौम्यैः तत्र वाच्यार्थः यः अस्ति इत्युक्ते धन्यर्थ एव वाच्यार्थस्पष्टसहितः यः अर्थः अस्ति सः उपमादिभिः उपमादि अलङ्कारः अलङ्कारोऽपि कदाचित् ध्वनिः भवति अग्रे वर्णयति सः अन्यैः बहुधा व्याकृतः अन्ये सर्वेऽपि तद्विषये बहुधा उक्तवन्तः सन्ति व्याकृतः नाम तद्व्याकृतवन्तः नाम तस्य लक्षणं कृतवन्तः सन्ति तत्र प्रसिद्धः यः वाच्यार्थः अस्ति सः उपमादिभिः प्रकारैः कन्यैः बहुधा व्याकृतः तर्हि अन्यैः नाम कैः इति चेत् काव्यलक्षणविधायिभिः काव्यलक्षणं ये कुर्वन्ति तादृशैः अस्य वाच्यार्थस्य विषये बहुधा लक्षणं कृतमस्ति अतः अतो नेह प्रतन्यते अत अहं तं विषयं न विस्तारयामि प्रतमोमि न तन्यते मया न तन्यते मया न विस्तार्यते सर्वे जानन्ति एव अतः एकं विषयम् अहं पुनः न करणीयामि ततोनेह प्रतन्यते तर्हि किम् अवशिष्टम् तद् केवलम् अनूद्यते पुनर्यथा योगम् यदा वक्तव्यं भवति तदा अहं तस्य अनुवादं करोमि अनुवादं करोमि इत्युक्ते ट्रान्स्लेशन् करोमि इत्यर्थः न केनचि उक्तमस्ति उक्तम् अहं पुनः अनुवदामि तदेव अत्र पुनः वदामि ट्रान्स्लेशन् करोति इत्यत्रापि अनुवादकृतं वदामः किल तत्रापि तात्पर्यार्थः स एव यानि कश्चन आङ्ग्लभाषया किञ्चित् उक्तवान् अस्ति अहं तथैव अनुवादं करोमि इत्युक्ते तेन उक्तम् अभिप्रायमेव अहं वदामि भाषामि न तावत् तदेव मयापि अनुमुच्यते अतः अत्र तु साक्षात् तं शब्दमपि अनुवदामि तदा आवश्यकता अस्ति चेत् तदा अहं तस्य अनुवादं करोमि तद् पुनः वदिष्यामि तावदेव किन्तु न प्रसन्यते विस्तारः तस्य न क्रियते तर्हि इदानीं किम् वक्तव्यम् अभवत् प्रतीयमाणः अर्थः वक्तव्यः तर्हि प्रतीयमाणः अर्थः नाम कः तस्य लक्षणं किम् इति वक्तव्यम् अभवत् नाम तदर्थम् अहमिदानीं वर्णयामि प्रतीयमानं पुनरन्यदेव वत्वत्तिवाणीषु
महाकवीनाम्
यत्तत्प्रसिद्धावयवातिरिक्तम्
लावण्यमिवाङ्गनातु
महाकवीनां वाणीषु कालिदासशूद्रकृतानां महाकवीनां वचनेषु महाकवीनां वाणीषु प्रतीयमानं वस्तु अन्यदेव भवति यथा लीलाकमलपत्राणि इत्यत्र उक्तवान् किल तत्र प्रतीयमानं वस्तु अनन्तरं ज्ञायमानं वस्तु अन्यदेव भवति प्रतीयमानं वस्तु अन्यदेव भवति प्रतीयमानं पुनः अन्यदेव वस्तु अस्ति कुत्र महाकवीनां वाणीषु कथम् इति चेत् एकम् उपमं ददाति यत्तत् प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु काचित् सुन्दरी अस्ति चेत् तस्याः पृथक् अङ्गसौन्दर्यं किञ्चित् भवति हस्तौ सुन्दरौ मुखं सुन्दरं नेत्रे सुन्दरे कर्णौ सुन्दरौ सर्वं भवितुमर्हति सर्वमपि निर्दोषं भवितुमर्हति कदाचित् कस्मिन्नपि अङ्गे लोपः न्यूनता वा न भवति सर्वं भवितुमर्हति तादृशी अपि नानि कदाचित् लावण्यवती इति न भवति सर्वाणि अङ्गानि निर्दुष्टानि सन्ति एकैकस्य अङ्गस्यापि किञ्चन सौन्दर्यं तत्सर्वम् अस्ति चेदपि आहत्य एषा सुलक्षणा नारी इति न कथ्यते कदाचित् इत्युक्ते अवयवसौन्दर्यातिरिक्तं लावण्यनामकम् अन्यदेव किञ्चित् भवति प्रायः महिलानां मध्ये तादृशं कथनमपि भवति समीपे नास्ति सा किन्तु लक्षणमपि न अन्यदेव भवति अङ्गानि सर्वाणि सुन्दराणि सन्ति नेत्रयतः करणं सः करोति तथापि लक्षणमिति न दृश्यते। किन्तु इत्युक्ते लावण्यनामकम् अवयवसौन्दर्यातिरिक्तं किञ्चित् अन्यदेव भवति। अन्याः काश्चित् तत्र कुत्रचित् किञ्चित् लोपः अस्ति चेदपि लावण्यमत्यः इति चर्चन्ति कदा। अतः प्रसिद्ध अवयव अतिरिक्तं प्रसिद्धाः ये अवयवाः सञ्जातपादादिकं जनस्य विषये चेत् अथवा काव्यस्य अवयवभूताः तत्र तदवयवभूतं किञ्चित् अङ्गना तु लावण्यमिति पृथगेव यत्किञ्चित् स्फुरति तद्वत् इदानीं काव्ये मुख्यार्थः यः अस्ति तस्मात् भिन्नः एव कश्चन अर्थः प्रतीयते। तादृशं प्रतीयमानं वस्तु किञ्चित् अन्यदेव भवति महाकवीनां वाणिषु। कथम् इति चेत् प्रसिद्धावयवातिरिक्तम् अङ्गनासु लावण्यं यथा विभाति तथा। तदेव अत्र लोचनकारः तद्वाक्येन लिखति पृथं निर्वण्यमान काणादिदोषशून्य शरीरावयवयोगिन्यामपि अलङ्कृतायामपि लावण्यशून्या इति व्यवहारः क्रियते। अङ्गेषु कुत्रापि एतत् नास्ति। अनन्तरम् अलङ्कृतापि सम्यक् आभरणादिकं धृतवती अस्ति तथापि लावण्यशून्या इति कदाचित् व्यवहारः क्रियते। अतथा भूतायामपि इत्युक्ते अन्यथा वर्तमानायामपि कस्याञ्चित् लावण्यामृतचन्द्रिकायम् इति व्यवहारः क्रियते। लावण्यनामकम् अन्यदेव किञ्चित् भवति तद्वत् काव्ये प्रतीयमानः अर्थः अन्यः एव कश्चन भवति। प्रतीयमानं वस्तु वस्तुनाम् अर्थः अग्रे गण्यते। सः हि अर्थः वाच्यसामर्थ्याक्षिप्तं वस्तुमात्रम् अलङ्कारर्थादयश्च इति अनेकप्रभेदप्रभिन्नः दर्शयिष्यते। तर्हि तदस्ति यदस्ति सः अर्थः वाच्यसामर्थ्य आक्षिप्तम्। वाच्यार्थः अस्ति किल, वाच्यार्थबलादेव तस्य आकर्षणम्। अतः वाच्यसामर्थ्य आक्षिप्तं तत् तद् कदाचित् वस्तुमात्रं भवति। एकं वस्तु वस्तु नाम कश्चन विषयः इति चिन्तयन्ति। किञ्चित् वस्तुमात्रं भवितुमर्हति, अलङ्कारः भवितुमर्हति, रसादिः भवितुमर्हति। प्रथमकक्षायाम् उक्तवान् क्रीडा भवति इति वस्तुः वस्तु अलङ्कारः रसः रसादिः इति स्थापयति। अतः वस्तु अलङ्काररसादयश्च इति अनेकप्रभेदप्रभिन्नः दर्शयिष्यते। तत्सर्वं वयं दर्शयिष्यामः अग्रे। सर्वेषु गतेषु प्रकारेषु वाच्यात् अन्यत्वम् सर्वत्र तेषु एकं तु स्पष्टतया भवति। किमिति चेत् प्रतीयमानं वस्तु अस्ति किल तद् वाच्यात् अन्यदेव भवति। एकम् उदाहरणं पश्यामः, सन्ति किल सप्तनिमेषाः। तथा हि आद्यस्तावत् प्रभेदः वाच्यादूरम् इति भेदवान् अग्रे। आद्यस्तावत् प्रभेदः प्रथमः प्रभेदः मया दृश्यते यः वाच्यात् दूरं विभेदवान्। वाच्यात् दूरे विभेदवान् वाच्यात् सर्वथा भिन्नः एव विभेदवान् विभेदसहितः भिन्नः इत्यर्थः। वाच्यात् विभेदवान् भवति। तर्हि कथं भवति सः इति चेत् सः हि कश्चित् वाच्ये विधिरूपे प्रतिषेधरूपः एवं गृहमर्हति। वाच्यार्थः विधिः भवति, गृह्यार्थः निषेधः भवति। विधिः निषेधः इति शब्दद्वयं कृतवन्तो वा कार्यं करणीयम् एवं करोतु इति वदामश्चेत् विधिः न पञ्चवादने उत्तिष्ठतु इति वदामश्चेत् एषः विधिः। अष्टवादनपर्यन्तं निद्रा न करणीया इति वदामश्चेत् सः अतः सर्वं विधिः भवति। उपविश्य भोजनं करणीयं विधिः, स्थित्वा न खादनीयम् इति उच्यते चेत् सर्वं भवति विधिः निषेधः इति भवति। विधि निषेधः भवति, वाच्यार्थः विधिः भवति, व्यङ्ग्यार्थः निषेधः भवति। तादृशमपि उदाहरणं भवति। पुत्रः अथवा पुत्री कोलाहलं करोति, अमिताभचित्रं पठामि वा इति वदति कोपेन वदति गच्छतु इति वस्तुतः विधिः उच्यते किन्तु तात्पर्यं किं न गच्छतु न गच्छति पुत्रानन्तरं तत्रैव तिष्ठति प्रकोष्ठं गच्छति किमर्थं वाच्यार्थः विधिः अस्ति गच्छतु इति किन्तु लिङ्गार्थस्तु न गच्छतु इति भवति कुत्र वाच्यार्थः विधिरूपः भवितुमर्हति लिङ्गार्थः निषेधरूपः भवितुमर्हति तस्य एकम् उदाहरणं समापयामः भवतां पुस्तके किञ्चित् पाठान्तरं स्यात् तात्पर्यं भ्रमधार्मिकविस्रब्धः
कशुनकोद्यमारितस्तेन गोदावरीनदीकूल
लतागहनवासिना दृप्तसिंहेन विधिरूपम् अर्थं प्रथमं गृह्णन्तु साक्षात् एषः अर्थः एका महिला एकं वदन्ति अस्ति कञ्चन धार्मिकं पुरुषं वदन्ति अस्ति धार्मिकः पुरुषः चेत् कन्नडवचने किञ्चित् मणिः कथ्यते किल तादृशः पुरुषः कश्चन गोदानदी अस्ति गोदावरीनद्याः तीरमस्ति तत्र सः धार्मिकः प्रतिदिनं पुष्पावचयनार्थम् आगच्छति पुष्पाणि स्वीकर्तुं सः आगच्छन् अस्ति तत्र इतस्ततः राटनम् अस्ति तं दृष्ट्वा एषा नायिका तं पश्यति सा वदन्ति अस्ति भ्रम धार्मिक विश्रब्धः अद्य भवान् सम्यक् अटितुं शक्नोति सञ्चारं करोतु विश्रब्ध विश्वस्तस्थं सञ्चर भ्रमणं करोतु भ्रम धार्मिक विश्वस्तः हे धार्मिका विश्वस्तसन् भ्रम किमर्थम् अद्य स्पेशल् विश्वस्तः इति वदन्ति अस्ति इति चेत् प्रतिदिनं सः यदा पुष्पावचयनार्थम् आगच्छति कश्चन शुनकः आगत्य तं स्पृशति स्म बहुमुनि उक्तवान् किल शुनकः स्पृशति चेत् पुनः गत्वा स्नानं करणीयं किमपि करणीयं तस्य शुनकस्य पीडा भवति पुनः पुनः शुनकः आगत्य स्पृशति स्म अतः वदन्ति अस्ति सः शुनकः अद्य मारितः अस्ति अद्य सः शुनकः न जीवति सः मारितः अस्ति केन इति चेत् गोदावरी नदीकूललतागहनवासिना तृप्तसिंहेन तत्र गोदानदीतीरे तत्र लतागहनमस्ति तत्र कश्चन तृप्तसिंहः अस्ति सः सिंहः शुनकं मारितवान् अतः भवता शुनकः आगच्छति इति चिन्ता करणीया नास्ति विश्रब्धः भ्रम इति वदति अतः भ्रमधार्मिकविश्रब्धः सः शुनकः अद्य तेन मारितः केन इति चेत् गोदावरी नदीकूलकलतागहनवासिना लतागहनं यत्र गहनतया लताः सन्ति तत्र निवासं करोति दुःखः सिंहः तेन सिंहेन सः शुनकः मारितः अस्ति अतः भ्रम पर्यट इति भ्रमणं करोतु इति विधिः किल यच्छतु पठतु लिखतु इति वदामश्चेत् अतः भ्रम इति वाच्यार्थः किन्तु एषः वाक्यार्थः अस्ति अस्माकम् अनन्तरकाले द्वितीयस्य अर्थस्य प्रतीतिः भवति सः कथं भवति इति चेत् तत्र अग्रे कारणानि भवन्ति कः वदति कदा वदति कुत्र वदति कमुद्दिश्य वदति एतत् सर्वं तत्र देशकालादिकं सर्वमपि तत्र परिगणनीयं तदा द्वितीयस्य अर्थस्य पूरणं भवति साक्षद्वयम् एतदेव पश्यन्तः स्मः चेत् एषः एव अर्थः किन्तु परिशीलयामश्चेत् या नागकवती अस्ति सा किञ्चित् दुश्चरित्रा नारी अस्ति सा तत्र तस्याः एकं सङ्केतस्थानम् अस्ति निश्चितं स्थानं तत्र नायकः आगच्छति तत्र सा गन्तुम् आगतवती अस्ति सः इदानीं धार्मिकः आगतवान् अस्ति सः अत्रैव भवति चेत् एतस्य एकान्तबन्धः भवति अतः तं ततः प्रेषयितुम् इच्छति अतः किं वदन्ति अस्ति भवान् सञ्चारं करोतु चिन्ता नास्ति सः शुनकः नास्ति शुनकः मृतः केन मारितः शुनकः मारितः अतः शुनकः नास्ति अतः भवान् भवतु इति वस्तुतः तात्पर्यम् इत्युक्ते भ्रमा इति विधिः वाच्यार्थरूपेण अस्माभिः श्रूयते अवगम्यते किन्तु द्वितीयः अर्थः अस्ति शुनकात् एव यः भीतः अस्ति ब्राह्मणः सः सिंहः अस्ति इति कृत्वा किं कुर्यात् तद्धावे एव अतः सः भ्रमणं मा कुरु इति निषेधरूपः अर्थः द्वितीयार्थस्य सः प्रतीयमानः अर्थद्वयमपि पार्श्ववाक्ये स्थापयित्वा पश्यन्तु वाच्यार्थः निजिरूपः प्रतीयमानः अर्थः निषेधरूपः किं रेडिङ्ग् अस्ति इत्युक्ते कुत्रचित् वाच्यार्थः विधिरूपः अस्ति चेदपि व्यङ्ग्यार्थः निषेधरूपः भवितुमर्हति तस्य एतत् उदाहरणम् तर्हि वाच्यार्थः भ्रमणं करोतु इति विधि व्यङ्ग्यार्थस्तु भ्रमणं मा गुरु इति निषेधरूपः अतः एवं कुत्रचित् वाच्यार्थः विधिरूपः भवति प्रतीयमानः अर्थः निषेधरूपः भवितुमर्हति तस्य एतत् उदाहरणम् एवमेव वाच्यार्थः निषेधरूपः भवति व्यङ्ग्यार्थः इदिरूपेण भवति द्वयमपि भवति द्वयमपि न भवति इत्यादि उदाहरणानि क्रमेण दर्शयति अग्रिमभाषायां शुनकः शुनकः नास्ति अद्य धैर्येण सञ्चारं करोतु इवते नायि बन्धुं मुटुदिल नी ओडाडु इति अल्ल इदु किन्तु तात्पर्यं किमस्ति नायिल्ल नायि सिंहं भवति अत्र सिंह इच्छति वर्बोदु अतः भवान् इदं धावतु इति वस्तुतः